ओम नमो भगवते वासुदेवाय। अथ त्रिंशोऽध्यायः। श्री शुक उवाच। अन्तर्हिते भगवती सहसैव व्रजाङ्गनाः अतप्यंस्तमचक्षाणाः करिण्यैव यूथपम् गत्यानुरागस्मितविभ्रमेक्षितैर्मनोरमालापविहारविभ्रमैः आक्षिप्तचित्ताः प्रमदारमापतेस्तास्ता विचेष्टा जगृहुस्तदात्मिकाः गतिस्मितप्रेक्षणभाषणादिषु प्रिया प्रियस्य प्रतिरूढमूर्तयः असावहं त्वित्यबलास्तदात्मिकान्यवेदिषु कृष्णविहारविभ्रमाः गायन्त्य उच्चैरमुमेव संहता विचिक्युरुन्मत्तकवद्वनाद्वनम् पप्रच्छुराकाशवदन्तरम् बहिर्भूतेषु सन्तम् पुरुषम् वनस्पतीन् दृष्टो वः कश्चिदश्वत्थ लक्षण्यग्रोधनो मनः नन्दसूनुर्गतो हित्वा प्रेमहासावलोकनैः कश्चित् कुरबकाशोकनागपुन्नागचम्पकाः रामानुजो मानिनीनामितो दर्पहरस्मितः कश्चित् तुलसी कल्याणि गोविन्दचरणप्रिये सहत्वालिकुलैर्बिभ्रत् दृष्टस्तेति प्रियोच्युतः मालत्यदर्शिवः कच्चिन्मल्लिके जातियूथिके प्रीतिम् वो जनयन् यातः करस्पर्शेन माधवः चूतप्रियालपनसा सनकोविदार जम्वर्कबिल्वबकुलाम्रकदम्बनीपाः येन्ये परार्थभवका यमुनोपकूला शंसन्तु कृष्णपदवीम् रहितात्मनाम्नः किन्ते कृतम् क्षितितपो बतकेशवाङ्घ्रिस्पर्शोत्सवोत्पुलकिताङ्गरुहैर्विभासि अप्यङ्घ्रिसम्भव उरुक्रमविक्रमाद्वा आहो वराह वपुषः परिरम्भणेन अप्येण पत्न्युपगतः प्रिययेह गात्रैस्तन्वन्दृशाम् सखि सुनिर्वृतिमच्युतो वः कान्ताङ्गसङ्गकुचकुङ्कुमरञ्जितायाः कुन्दस्रजः कुलपतेरिह वातिगन्धः बाहुम् प्रियांस उपधाय गृहीत पद्मो रामानुजस्तुलसिकालिकुलैर्मदान्धैः अन्वीयमानैः वस्तरवः प्रणामम् किम् वाभिनन्दति चरन् प्रणयावलोकैः पृच्छते मालता बाहूनप्याश्लिष्टा वनस्पतेः नूनम् तत्करजस्पृष्टा बिभ्रत्युत्पुलकान्यहो इत्युन्मत्तवचो गोप्यः कृष्णान्वेषणकातराः लीला भगवतस्तास्तायनुचक्रुस्तदात्मिकाः कस्याश्चित्पूतनायन्त्या कृष्णायन्त्यपि बत्स्तनम् तोकायत्वा रुदत्यन्या पदाहञ्छकटायतीम् दैत्यायत्वा जहारान्यामेका कृष्णार्भभावनाम् रिङ्गयामास काप्यङ्घ्री कर्षन्ति घोषनिस्वनैः कृष्णरामायिते द्वे तु गोपायन्त्यश्च काश्चन वत्सायतीम् हन्ति चान्या तत्रैका तु बकायतीम् आहूय दूरगा यद्वत् कृष्णस्तमनुकुर्वतीम् वेणुम् क्वणन्तीम् क्रीडन्तीमन्या शंसन्ति साध्विति कस्याञ्चित् स्वभुजम् न्यस्य चलन्त्याः परा ननु कृष्णोऽहम् पश्यत गतिम् ललितामिति तन्मनाः मा भैष्टवातवर्षाभ्याम् तत्राणम् विहितम् मया इत्युक्त्वैकेन हस्तेन यतन्त्युन्निदधेऽम्बरम् आरुह्येका पदाक्रम्य शिरस्याः पराम् नृप दुष्टा हे गच्छ जातोऽहम् खलानाम् ननु दण्डधृक् तत्रैकोवाच हे गोपादावाग्निम् पश्यतोऽल्बणम् चक्षुंस्यास्वपिधध्वम् वो विधास्ये क्षेममञ्जसा बद्धान्यया स्रजा काचित् तन्वी तत्र उलूखले भीता सुदृक्पिधायास्यम् भेजे भीतिविडम्बनम् एवम् कृष्णम् पृच्छमाना वृन्दावनलतास्तरून् व्यचक्षतवनोद्देशे पदानि परमात्मनः पदानि व्यक्तमेतानि नन्दसूनोर्महात्मनः लक्ष्यन्ते हि ध्वजाम्भोज वज्राङ्कुशयवादिभिः दैस्तैपदैस्तत्पदवीमन्विच्छन्त्योग्रतो बलाः वध्वा पदैः सुप्रिक्तानि विलोक्यार्ता समब्रुवन् कस्याः पदानि चैतानि यातायानन्दसूनुना अंसन्यस्तप्रकोष्ठायाः करेणोः करिणा यथा अनयाराधितो नूनम् भगवान् हरिरीश्वरः यन्नो विहाय गोविन्दः प्रीतो यामनयद्रहः धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्यब्जरेणवः यान् ब्रह्मेशो रमा देवी तधुर्मूर्ध्न्यघनुत्तये तस्या अमूनि न क्षोभं कुर्वन्त्युच्चैः पदानि यत् यैकापहृत्य गोपीनां रहो भुङ्क्ते च्युताधरम् न लक्ष्यन्ते पदान्यत्र तस्या नूनं तृणाङ्कुरैः खिद्यत् सुजाताङ्घ्रितला मुनिन्ये प्रेयसीं प्रियः इमान्यधिकमग्नानि पदानि वहतो वधूम् गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः अत्रावरोपिता कान्ता पुष्पहेतोर्महात्मना अत्र प्रसूना वचयः प्रियार्थे प्रेयसा कृतः प्रपदाक्रमणे एते पश्यता सकले पदे केशप्रसाधनं त्वत्र कामिन्याः कामिना कृतम् तानि चूडयता कान्तामुपविष्टमिह ध्रुवम् रेमे तया चात्मरत आत्मा रामोऽप्यखण्डितः कामिनां दर्शयन् दैन्यम् स्त्रीणां चैव दुरात्मताम् इत्येवं दर्शयन्त्यस्ताश्चेरुर्गोप्यो विचेतसः यां गोपीमनयत् कृष्णो विहायान्याः स्त्रियो वने सा च मेने तदात्मानं वरिष्ठं सर्वयोषिताम् हित्वा गोपीः कामयाना मामसौ भजते प्रियः ततो गत्वा वनोद्देशं दृप्ता केशवमब्रवीत् न पारयेऽहं चलितुं नयमां यत्र ते मनः एवमुक्तः प्रियामाह स्कन्ध आरुह्यतामिति ततश्चान्तर्दधे कृष्णः सावधूरन्वतप्यत हा नाथरमणप्रेष्ठ क्वासि क्वासि महाभुज दास्यास्ते कृपणाया मे सखे दर्शय सन्निधिम् अन्विच्छन्त्यो भगवतो मार्गं गोप्यो विदूरतः ददृशुः प्रियविश्लेष मोहितां दुःखितां सखीम् तया कथितमाकर्ण्य मानप्राप्तिं च माधवात् अवमानं च दौरात्म्यात् विस्मयं परमं ययुः ततो विशन् वनं चन्द्रज्योत्स्ना यावद्विभाव्यते तमः प्रविष्टमालक्ष्य ततो निववृतुः स्त्रियः तन्मनस्कास्तदालापास्तद्विचेष्टास्तदात्मिकाः तद्गुणानेव गायन्त्यो नात्मागाराणि सस्मरुः पुनः पुलिनमागत्य कालिन्द्याः कृष्णभावनाः समवेता जगुः कृष्णम् तदा गमनकाङ्क्षिताः ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे रासक्रीडायाम् कृष्णान्वेषणम् नाम त्रिंशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।